निसर्गक्षीणस्य स्तनतटभरेण क्लमदुषः नमन्मूर्तेर्नारीतिलक शनकैस्तृट्यत इव चिरं ते मध्यस्य त्रुटिततटिनी तीरतरुणा समवस्थास्तेम्नः भवतु कुशलम् शैलतनये कुचौ सद्यस्विद्यत् तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता तवत्र तुम्भङ्गात् अलमिति वलग्नं तानुभुव त्रिधानदं देवी त्रिवलि लवलि वल्लिभिरिव गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् नितम्बादाचिध्य त्वयि हरणरूपेण निदधे अतस्ते विस्तीर्णः कुरुरयम् अशेषां वसुमतीं नितम्ब प्राग्भारः स्थगयति लघुत्वं नयति च करीन्द्राणां शुण्डान् कनककदली काण्डपटली उभाभ्यामुरुभ्याम् उभयमपि निर्जित्य भवति सुवृत्ताभ्यां पत्युः प्रणति कठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुध करिकुम्भद्वयमसि पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्गेते विषमविशिखो बाडमकृत यदग्रे दृश्यन्ते दशशरपलः पादयुगली नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिता श्रुतीना मूर्धनः दधति तव यौ शेखरतया ममाप्येतो मातः शिरसि दयया देहि चरणो ययोः पाद्यौ पातः पशुपतिजटाजूटतटिनी ययोर्लक्षालक्ष्मीः अरुणहरिचूडामणि रुचिः नमो वाकं ब्रूमः नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते चिरादन्तशल्यं दहनकृतम् उन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा हिमानि हन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशिचरमभागे च विशदौ वरं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् पादं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः కఠినకమటి కర్పరతుల కథం వా బాహుభ్యం ఉపయమన కాలే పురభిర యదా దయన్యస్తం దృశతి దయమానేన మనసా నఖైర్నఖస్త్రీణాం కరకమల సంకోచ శశిభిః తరుణాం దివ్యానాం హసతైవ తే చండి చరణౌ ఫలాని స్వస్థేభ్యః కిశలయకరాగ్రేణ దదతాం దరిద్రేభ్యో భద్రాం శ్రియం అనిశమహ్నాయ దదతౌ దదానే దీనేభ్యః శ్రియం అనిశం ఆశానుసదృశీం అమందం సౌందర్య ప్రకరమకరందం వికిరతి తవాస్మిన్ మందారస్తబక సుభగే యాతు చరణే నిమజ్జన్మ జీవః కరణచరణ షట్చరణతా.